अथन् द्वादशो अध्यायः अर्जुना उवाच एवं सततयुक्ताये भक्तास्त्वां पर्युपासते ये चाप्यक्षरमं व्यक्तं तेषां के योगवित्तमाहं श्रीभगवानुवाच मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते श्रद्धया परयोपेतास्ते मे युक्तत्तमामताः ये त्वक्षरमनिर्देश्यम् अव्यक्तं पर्युपासते सर्वत्र गमचिन्त्यं च कूटस्थमचरं ध्रुवं सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ते प्राप्नुवन्ति मामेव सर्वभूतहितेरताः क्लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसाम् अव्यक्ता हि गतिर्दुग्धम् देहवद्भिरवाप्यते ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः अनन्येनैव योगेन मां ध्यायन्त उपासते तेषामहं समुद्धर्ता मृत्यु संसारसागरात् भवामि न चिरात् पार्थ मय्यावेशितचेतसां मय्येवं मन आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मां निक्षाप्तुं धनञ्जय अभ्यासे अप्यसमर्थोऽसि मत्कर्मं परमो भव मन्दर्धमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि अद्धैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः सर्वकर्मफलत्यागम् ततः कुरु यतात्मवान् श्रेयो हि ज्ञानमभ्यासाज् ज्ञानाध्यानं विशेष्यते ध्यानात् कर्म फलत्यागस्त्यागाढ्यान्तिरनन्तरम् अन्वेष्टा सर्वभूतानां मैत्रः करुण एव च निर्ममो निरहङ्कारः समं दुःखसुखक्षमी सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः यस्मान्नो द्विजते लोको लोकान्नो द्विजते चयः परशामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः अनपेक्ष शुचिर्दक्ष उदासीनो गतव्यथः सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः सम्मा शत्राव च मित्रे च तथा मानापमानयोः शीतोष्ण सुख दुःखेषु सम्मा संगं विवर्जितः तुल्य निन्दा स्तुतिर्मौनि संतुष्टो येन केनचित् अनिकेतस्थिरं मतिर्भक्तिमान् मे प्रियो नरः ये तु धर्मामृतं मेदं यथोक्तं पर्युपासते श्रद्दधानामत्परमा भक्तास्ते अतीव मे प्रियाः इति श्री महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः